अंगम हरे पुलक भूषण माशयंती भृंगांगनेव मुकुलाभरणं तमालं अंगीकृताखिल विभूतिरुपांगलीला मांगल्यदास्तु मम मंगलदेवतायः मुग्धा मुहुर्विदधति वदने मुरारेः प्रेमत्र पाप्रणिहितानि गतागतानि मालादृश्योर्मधुकरीव महोत्पलेया सामे श्रियं दिशतु सागर संभवायः आमीलिताक्षमधिगम्य मुदा मुकुन्दम् आनन्दकन्दमनिमेषमनङ्गतन्त्रम् आकेकरस्थितकनीनिकपक्षमनेत्रम् भूत्यै भवेन्मम भुजङ्गशयाङ्गनायः बाहवन्त्रे मधुजितः श्रितकौस्तुभेया हारावलीव हरिनीलमयी विभाति कामप्रदा भगवतोऽपि कटाक्षमाला कल्याणमावहतु मे कमलालयायः कालाम्बुदालिललितोरसि कैटभारेः धाराधरे स्फुरति यातडिदङ्गनेव मातुस्मस्तजगतां महनीयमूर्तिः भद्राणि मे दिशतु भार्गवनन्दनायः प्राप्तं पदं प्रथमतः खलु यत्प्रभावान् मांगल्यभाजी मधुमाथिनी मन्मथेन मैया पतितदिह मन्थरमीक्षणार्धम् मन्दालसं च मकरालयकन्यकायः विश्वामरेन्द्रपद विभ्रमदानतक्षम् आनन्दहेतुरधिकं मुरविदविशोऽपि ईशन्निषीदतु मयि क्षणमीक्षणार्थ मिन्दिवरोदर सहोदर मिन्दिरायः इष्टाविशिष्टमतयोऽपि यया दयार्द्र दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते दृष्टिः प्रवृष्टकमलोदरदीप्तिरिष्टां पुष्टिं कृषिष्ट मम पुष्करविष्टरायः ददयानुपवनो द्रविणाम्बुधारा अस्मिन् किञ्चन विहङ्गशिशो विष्णणे दुष्कर्म घर्ममपनीयचिराय दुरम् नारायण प्रणयिनी नयनाम्बुवाह धीर्देवतेति गरुड़ध्वजसुंदरीति शाकंभरीति शशिशेखरवल्लभेति सृष्टि स्थिति प्रलय केलीषु संस्थितायै तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै श्रुत्यै नमोस्तु शुभकर्मफलप्रसूत्यै रत्यै नमोस्तु रमणीयगुणार्णवायै शक्त्यै नमोस्तु शतपत्रनिकेतनायै पुष्ट्यै नमोस्तु पुरुषोत्तमवल्लभायै नमोस्तु नालिकनिभाननायै नमोस्तु दुग्धोदधिजन्मभूम्यै नमोस्तु सोमामृतसोदरायै नमोस्तु नारायणवल्लभायै नमोस्तु हेमाम्बुजपीठिकायै नमोस्तु भूमण्डलनायिकायै नमोस्तु देवादिदयापरायै नमोस्तु शाङ्गार्युधवल्लभायै नमोस्तु देव्यै भृगुनन्दनायै नमोस्तु विष्णोरुरसिस्थितायै नमोस्तु लक्ष्म्यै कमलालयायै नमोस्तु दामोदरवल्लभायै नमोस्तु कान्तयै कमलेक्षणायै नमोस्तु भूत्यै भुवनप्रसूत्यै नमोस्तु देवादिभिर्चिर्तायै नमोस्तु नन्दात्मजवल्लभायै सम्पत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदानविभवानि सरोहूहाक्षी त्वद्वन्दनानि दुरिताहरणो दैतानि मामेव मातर्निशं कलयन्तु मान्ये यत्कटाक्षसमुपासनाविधिः सेवकस्य सकलार्थसम्पदः सन्तनोति वचनाङ्गमानसिः त्वामुरारिहृदयेश्वरीं भजे सरसिजनिलये सरोजहस्ते धलवतमांशुकगन्धमाल्यशोभे भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् दिग्धस्थिभिः कनककुम्भमुखावसृष्ट स्वर्वाहिनी विमलचारुजलप्लुताङ्गिं प्रातर्नमामि जगतां जननीमशेष लोकाधिनाथ गृहिणी ममृताब्धिपुत्रीं कमले कमलाक्षवल्लभे त्वं करुणापुरतरङ्गी तैरपाङ्गयः अवलोकय मां किञ्चनानां प्रथमं पात्रं कृत्रिमं दयायाः देवी प्रसीद जगदीश्वरी लोकमातः कल्याणगात्री कमलेक्षण जीवनाथे दारिद्रभीति हृदयं शरणागतं माम आलोकय प्रतिदिनं सदयैरपाङ्गयः स्तुवन्ति ये स्तुतिभिरमोभिरन्वहम् त्रयीमयीं त्रिभुवन मातरं रमाम गुणाधिका गुरुतर भाग्यभागिनो भवन्ति ते भुवि बुध भाविताशयाः इति श्रीमद् शंकराचार्य कृत श्रीकनकधारास्तोत्रं सम्पूर्णम्।